रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। चक्रवृद्धि धनेन पीडितानाम् जनानाम् समस्यानाम् समाधानाय सर्वकारेण उच्चस्तरीय आयोगः संघटयिष्यते। सर्वकारेण षड्विंशत्यधिक द्विसहस्रतम विक्रम वर्षीयस्य अनुसन्धानाधिनियमस्य अनुसारेण आयोगोऽसौ संघटयिष्यमाणो वर्तते। गृहमन्त्रालये गतदिने सर्वकारस्य आन्दोलनरतायाः चक्रवृद्धि धन पीडित संघर्ष समितेश्च मध्ये धृतायाः पञ्चसूत्रीय सहमतेः अनुसारेण अतपरम् उपवेक्ष्यमाणेन मन्त्रिपरिषदः उपवेशेन आयोगोऽसौ संघटयिष्यते। चक्रवृद्धि धन ग्राहकैः निरक्षराभ्य विपन्नाभ्य आर्थिक रूपेण कठिन परिस्थितौ विद्यमानाभ्यश्च व्यक्तिभ्यः उच्चैः वृद्धिधनाङ्कमानेन ऋण प्रतिग्रहणस्य वास्तविकात् आदान प्रदानात् अधिकाङ्कान् उल्लिख्य प्रपत्र निर्माणस्य अधमरणानां सम्पदः स्वाधिकारे अधिग्रहणस्य ऋणस्य दुश्चक्रे निपात्य विभिन्नरीत्या शोषणस्य च समस्यानां समाधानाय अनुसन्धानायोगस्य संघटनार्थं नेपाल सर्वकारं परामृष्टम् उभयोरेव पक्षयोर्मध्ये सहमते धृतास्ति। एवमेव चक्रवृद्धि धनेन पीडितेभ्यो जनेभ्यो नियमितरूपेण प्राप्तानां निवेदनानां दुःखानुवेदनानां च सम्बोधनाय प्रमुख जनपदाधिकारिणः संयोजकत्वे समितिः संघटयिष्यते। तत्पूर्वं प्रधानमन्त्रिणा पुष्पकमलदाहाल प्रचण्डेन चक्रवृद्धि धनेन पीडितानां जनानां समस्यानां स्थायीरूपेण समाधानाय सर्वकारेण कार्यमग्रे सारितमस्तीति उक्तम् आसीत्। चक्रवृद्धि धनेन पीडितैः जनैः सह ह्यो बालवाटार स्थाने सम्पन्ने मेलने प्रधानमन्त्री प्रचण्ड सामन्तवादस्य अवशेषस्य रूपेण विद्यमानं चक्रवृद्धि धनग्रहणं स्थायीरूपेण समाप्तुं सर्वकारः गभीरोऽस्तीति अवदत्। नेकपा एमाले दलस्य सचिवालयस्य ह्यस्तनोपवेशेन चितवन जनपदस्य द्वितीय निर्वाचन क्षेत्रस्य तनहुँ जनपदस्य प्रथम निर्वाचन क्षेत्रस्य च उपनिर्वाचनस्य कृते प्रत्याशिनौ निर्धारितौ स्तः। सचिवालयोपवेशस्य पश्चात् संचारकर्मिभिः भाषमाणः प्रचार विभाग प्रमुखः पृथ्वी सुब्बा गुरूङ चितवन जनपदस्य द्वितीय निर्वाचनस्य कृते रामप्रसाद न्यौपाने तनहुँ जनपदस्य प्रथम निर्वाचन क्षेत्रस्य कृते च सर्वेन्द्र खनालः प्रत्याशिनौ निर्धारयितुं निर्णीतमस्तीति अज्ञापयत्। आगामिनौ वैशाख मासस्य दशमे दिवसे सम्पत्स्यमानस्य उपनिर्वाचनस्य कृते एमाले दलेन 12 जनपदस्य द्वितीय निर्वाचन क्षेत्राय प्रत्याशी अद्य निर्धार्यते इति च असौ असूचयत्। रास्वपा नाम्ना राष्ट्रिय स्वतन्त्र दलेन आगामिनो वैशाख मासस्य दशमे दिवसे सम्पत्स्यमानाय उपनिर्वाचनाय दलस्य सभापति रवि लामिछाने डाक्टर स्वर्णिम वाग्ले रमेश खरेलश्च प्रत्याशिन निर्धारिता सन्ति। रास्वपा दलस्य केन्द्रीय कार्यालय ह्य आयोजिते पत्रकार सम्मेलने चितवन जनपदस्य द्वितीय निर्वाचन क्षेत्राय दलस्य सभापति लामिछाने तनौ प्रथम निर्वाचन क्षेत्राय डाक्टर वाग्ले 12 द्वितीय निर्वाचन क्षेत्राय च खरेलः प्रत्याशिनो निर्धारिताः सन्तीति दलस्य केन्द्रीय निर्वाचन आयोगस्य प्रमुख नारायण प्रसाद प्याकुरेलः अज्ञापयत्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः उपवेशः अद्य उपविश्यमानो वर्तते। मन्त्रिपरिषदः विस्तारस्य सामाजिक राजनैतिक घटनाक्रमस्य उपनिर्वाचनस्य च विषयेषु विमर्शनाय उपवेशः आकारितः इति दल कार्यालयस्य मुख्य सचिवः कृष्णप्रसाद पौडेलः ज्ञापयति। उपप्रधान गृहमन्त्री नारायण काजी श्रेष्ठः निगदति सर्वकारस्य एकमेवोद्देश्यं सामाजिक आर्थिक रूपान्तरणं विकासः समृद्धिश्च वर्तते। काभ्रे पलाञ्चोक जनपदस्य तेमाल ग्रामपालिकायाः अष्टमवडा क्षेत्रस्य योगरस्थाने ह्य बौद्धविहारम् उद्घाटयन् उपप्रधानमन्त्री श्रेष्ठः जनाकांक्षायाः अनुसारेण कार्यं कर्तुम् आत्मना दृढीभूय प्रवर्तितमस्तीति समस्पष्टयत्। गृहमन्त्री श्रेष्ठ प्राप्तोपलब्धीनां दुर्बलीकरणस्य प्रवृत्तेः असांविधानिक क्रियाकलापस्य च विरूद्धे सावधानता सन्धरणीयेति बलं प्रादात्। उप प्रधान रक्षा मन्त्री पूर्णबहादुर खड्का कथयति सर्वकार संघीय लोकतान्त्रिक गणतन्त्रस्य सुदृढीकरण पुरस्सरं स्थायी शान्तिम संस्थापयति। यो ललितपुरस्य बाडेगाउँ स्थितं भट्टराई आश्रमं निरीक्षमाण उप प्रधानमन्त्री खड्का अगदत् वर्तमान सर्वकारस्य प्राथमिकता स्थायी शान्ते संस्थापनं शान्ति प्रक्रियाया अवशिष्ट कार्यव्यय पूर्णता प्रदानं आर्थिक समृद्धे प्राप्तिश्च सन्ति। श्रमवृत्ति सामाजिक सुरक्षा मन्त्री शरदसिंह भण्डारी भाषते वैदेशिक वृत्त्युपार्जनम् व्यवस्थितम् विधास्यते। ललितपुरस्य बाडेगाउँ स्थितम् भट्टराई आश्रमम् प्राप्तो मन्त्री भण्डारी वैदेशिक वृत्त्युपार्जनाय गतानाम् नेपालीनाम् कृते ससम्मानम् विश्वापणे श्रमस्य वातावरणम् स्रक्षते इत्यवोचत्। मन्त्री भण्डारी वैदेशिक वृत्त्युपार्जने विधीयमानम् वञ्चनम् अवैधानिक कार्यञ्च समाप्य श्रमिकाणाम् अधिकाराणाम् कृते कार्यम् कर्तुम् सदा प्रवर्त्यते इति उदयरयत्। नेपाले पर्यटन समित्या पदयात्राया सुरक्षणस्य व्यवस्थितेश्च उद्देश्येन एतद् वैक्रमाब्ध पदयात्री सूचना व्यवस्थापन प्रणाली सम्बद्ध मापदण्ड क्रियान्वितो वर्तते। समितौ गतदिने आयोजिते कार्यक्रमे संस्कृति पर्यटन नारीको डयन मन्त्री सुदन किराँती एतत् सम्बद्धम् मापदण्डम् शुभारभमाण अनेन मापदण्डेन नेपालस्य पर्यटनम् सुरक्षितम् विधातुम् सहायम् मिलतीति विश्वासम् अभिव्यनक। नेपाल पर्यटन समितेः कार्यकारी प्रमुख डाक्टर धनञ्जय रेग्मी गतदिवसत पदयात्राम् जिगमिषुभिः व्यक्तिभिः अनिवार्य रूपेण पथ प्रदर्शक नयनात्मिका व्यवस्था क्रियान्वितास्तीति अज्ञापयत्। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा वदति पञ्चानाम मासानाम अभ्यन्तरे परिणाम प्रदानत्वेन सर्वकारेण अग्रे वर्धितव्यम्। नेपाली कांग्रेस दलस्य बाँके जनपद समितेः प्रथम जनपद सम्मेलनम् पूर्वेद्युः नेपालगंज नगरे सम्बोधयन् महामन्त्री थापा राष्ट्रस्य अवस्थायाः जर्जरतायाः कारणेन आगामिनो मास पञ्चकस्य अभ्यन्तरे परिणाम प्रदानार्हतया सर्वकारेण अग्रे वर्धितुम् क्षमेण भाव्यमिति प्रत्यपादयत्। महामन्त्री थापा स्वदलात् सर्वकारे सहभागिभ्यो मन्त्रिभ्यः उन्मुक्तेः सौविध्यम् नास्तीति तर्कयन् अब्रवीत् परिणाम प्रदानात् पराङ्मुखानाम् मन्त्रिणाम् प्रत्याह्वानम् भविष्यति। राष्ट्रिय जनमोर्चा दलस्य अध्यक्ष चित्रबहादुर केसी कथयति दलानाम् अनुचित प्रवृत्तेः कारणेन नवीन शक्तेः उदयः सम्भूतोऽस्ति। बागलुङ जनपदस्य जैमिनी नगर पालिकया ह्य आयोजिते विज्ञ सम्मेलनस्य उद्घाटन कार्यक्रमे नेता केसी नूतन शक्तेः उदयस्य कारणं दलेषु वितृष्णा स्थिति टिप्पणीम् अकरोत्। विज्ञानां परामर्शनस्य आधारेण कृष्युद्योग पर्यटनेषु बले प्रदत्ते सति समृद्ध देशस्य निर्माणे कापि शंका न भवति इति चर्चयन् अध्यक्ष केसी स्थानीयोत्पादनानाम् आपणीकरणस्य दायित्व स्वीकरणम् आवश्यकम् अस्तीति विचारम् व्यक्तवान्। नेपाल पत्रकार महासंघेन नागरिकाणाम् अधिकारैः संचार स्वतन्त्रतायाः सूचनायाश्च अधिकारैश्च सहितस्य संचार मैत्री विधेयः निर्माणाय अभियाचितमस्ति। लुम्बिन्याम् ह्यः सम्पन्नेन राष्ट्रिय संचार माध्यम सम्बद्ध सम्मेलनेन प्रकाशिते नवसूत्रीय घोषणापत्रे संविधानस्य अनुसारेण निर्मातव्यस्य संचार सम्बद्ध निकायस्य संघटनाय पूर्णतायै च सर्वकारस्य ध्यानाकर्षणम् कारितमस्ति। सम्मेलनेन महासंघस्य क्रियाशील पत्रकाराणाम् संयुक्त संघटनस्य रूपेण विकासाय सदस्यता शुद्धिकरणाभियानम् अतिरिक्तम् प्रभावकारी विधातुम् निर्णीतमस्ति। श्रमजीवी पत्रकाराधिनियम प्रवृत्तिनाम् विद्यमान विधिनाम् अनुसारेण न्यूनतम पारिश्रमिकात् सेवा सौविध्याच्च श्रमजीवी पत्रकाराः वञ्चिताः सन्तीति निश्चयनम् कृत्वा सम्मेलनेन अधिनियमस्य पूर्ण क्रियान्वयनाय समय सापेक्ष न्यूनतम पारिश्रमिकस्य वृद्धये निर्धारितानाम् सेवा सौविध्यानाम् पूर्ण क्रियान्वयनार्थञ्च सर्वकारः सम्बद्ध सञ्चार गृहञ्च अनुरुद्धे स्तः।